एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते समाजवादी क्रान्त्यै समाजवादी संयुक्त संयुते पूर्वकार्य विधीयमानं वर्तते। दाङ जनपदीयया माओवादी केन्द्र समन्वय समित्या ह्य आयोजिते अग्रणी कार्यकर्ता मेलने प्रधानमन्त्री प्रचण्ड अवोचत् समाजवादी संयुतित नवीन नेकपा दलं यावत् प्राप्त प्रयत्न जायमानो वर्तते। समाजवादी संयुक्त संयुते वैचारिक प्राविलेखनाय अन्तिम रूपं दत्तमिति ज्ञापयन् प्रधानमन्त्री प्रचण्ड अवाचत् कतिचित् दिनेषु संयुते घोषणा भविष्यति। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च प्रचण्ड अगदत् नेकपा माओवादी केन्द्रम् नेकपा एकीकृत समाजवादी दलम् नेपाल समाजवादी दलम् जनता समाजवादी दलम् च संयोज्य समाजवादी संयुति निर्मास्यते। प्रधानमन्त्री प्रचण्ड राष्ट्रिय सुशासनम् स्थापयितुम् विकास निर्माण कार्याणि सम्पादयितुम् जनाकांक्षाम् पूरयितुम् च सर्वकारस्य दृढतया सक्रियताया कारणेन भ्रष्टाचार विरोधिनी अभियाने केनापि सह न विधीयते इति विश्वासम् अदापयत। कार्यक्रमे संचार सूचना प्रविधि मन्त्री रेखा शर्मा अकथयत् सुशासन प्रवर्धनाय सेवा प्रवाहाय च सर्वकारः दृढतया सक्रियो वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति संस्कृत भाषा न केवलं प्राचीन भाषा एव अपितु दर्शन चिन्तनयोः अपार ज्ञानागारं वर्तते। दाङ जनपदस्य बेलझुण्डी स्थाने ह्य आयोजिते नेपाल संस्कृत विश्वविद्यालयस्य पञ्चम दीक्षान्त समारोहे प्रधानमन्त्री प्रचण्ड अवाचत् पौरस्थ्य सभ्यतायाः अध्ययनाय संस्कृत भाषायाः अध्ययनम् अनिवार्यं वर्तते। प्रधानमन्त्री प्रचण्ड पौरस्थ्य भूगोले निवसन्त्या प्रत्येकं व्यक्त्या स्वस्य देश समाज संस्कृतिनां सुगन्धम् ज्ञातुम् संस्कृतम् ज्ञातव्यम् एव भवतीति प्रत्यपादयत। प्रधानमन्त्री प्रचण्डः अवोचत् शिक्षायाः विकासाय सर्वकारः गभीरो वर्तते। सर्वकारस्य वार्षिक नीति कार्यक्रमाणाम् माध्यमेन सुधाराय प्रयत्नश्च जायमानोऽस्ति। प्रधानमन्त्री प्रचण्डः सर्वेषाम् विश्वविद्यालयानाम् मध्ये समन्वयम् संस्थाप्य अध्ययनाध्यापनम् अनुसन्धानमुखी विधातुम् सर्वकारेण बलम् प्रदीयमानमस्तीति प्रावोचत। प्रधानमन्त्री प्रचण्डः नेपालस्य द्वितीय विपुलतर विश्वविद्यालयेन पौरस्थ्य मूल्य मान्यता संस्कार संस्कृत्या दर्शानां संवर्धन विकासयोः कृते प्रदत्तं योगदानं प्रशंसनीयम् अस्तीति प्रावोचत। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री अशोक कुमार राई अकथयत् विश्वविद्यालयस्य दीक्षान्त कार्यक्रमः आगामी वर्षेष् नियमितो विधास्यते। विश्वविद्यालयस्य उपकुलपतिः प्राध्यापकः डाक्टर यादव प्रकाश लामिछाने विविधैः कारणैः विश्वविद्यालयस्य दीक्षान्त समारोह द्वादश वर्षाणाम् अवधौ सम्पन्नः नाभूत् इति ज्ञापयन् अकथयत्। अतः परम् एतादृशः कार्यक्रमः यथासमयम् सम्पादयिष्यते। दीक्षान्त समारोहस्य प्रमुखातिथि भारतस्य वाराणस्याः सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य कुलपतिः प्राध्यापकः डाक्टर हरेराम त्रिपाठी च मन्तव्यम् उदैरयत्। समारोहे शास्त्राचार्य विद्यावारिध्युपाधीन् प्राप्तवन्तः पञ्चसप्तत्यधिक पञ्चशतं विद्यार्थिनो दीक्षिताः आसन्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति राष्ट्रस्य अर्थतन्त्रं गतिशीलं विधातुं सर्वकारः सक्रियेण प्रवर्तितोऽस्ति। कुलशिरोमणि दासु स्मृति अनुसन्धान प्रतिष्ठानेन दाहाल बन्धूनाम् उद्गमस्थले दैलेख जनपदस्य दुल्लुवर्तिनी दहस्थाने ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्ड सुशासनम् संस्थापयितुम् भ्रष्टाचारम् अवरुद्धुम् च स्वस्य ध्यानम् केन्द्रितम् अस्तीति असूचयत। भारत भ्रमणम् राष्ट्रस्य आर्थिक समुन्नत्यै सफलम् सम्भूतमिति भाषमाणः प्रधानमन्त्री प्रचण्ड अवोचत् दश वर्षेष् दश सहस्र मेगावाट मितायः विद्युतः क्रयणस्य भारतस्य योजनातः नेपालेन लाभः अधिगमिष्यते। दैलेख जनपदः विभिन्न जातिनां कृते ऐतिहासिकं स्थलम् अस्तीति भाषमाणः प्रधानमन्त्री प्रचण्ड अस्य क्षेत्रस्य आर्थिक सामाजिक शैक्षिक विकासे विहिते विश्वमानचित्रे दैलेख जनपदः परिचायितुं शक्यते इति प्रत्यपादयत। तदवसरे प्रधानमन्त्री प्रचण्ड दाहाल वंश प्रवर्तकस्य दासु भट्टस्य प्रथमां प्रतिमाम् अनावृणोत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते सर्वकार्येण विहितानाम् उचित कार्याण विरोधका त्रिणाम् सशक्त रूपेण प्रतिवादः आवश्यको वर्तते। बालबाटार वर्तिनी प्रधानमन्त्री निवासे ह्य प्रेस सेन्टर नेपालस्य ज्ञापन पत्रम् गृह्णन् प्रधानमन्त्री प्रचण्ड भाषत जनविरोधी तत्वानि सम्प्रति विषयविहीनानि जातानि जनतायाम् नग्नताम् प्राप्तानि च सन्ति। प्रेस सेन्टर नेपालेन विभिन्नेषु चतुर्दशसु सूत्रेषु देश जनता श्रमजीवी पत्रकारैः षोडव्यानां समस्यानां विषये प्रधानमन्त्रिणे ध्यानाकर्षणं विहितं वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भ्रष्टाचारस्य नियन्त्रणाय सर्वकार कठोरेण प्रस्तुतो वर्तते इत्यतः अत्र कार्य कथं विदापि संविधान क्रियते इति प्रतिबद्धतां व्यनक्ति। पूर्वमन्त्रिण नेकपा माओवादी केन्द्रस्य दिवंगत नेतुश्च धनीराम पौडेलस्य चतुर्थ स्मृति दिवसस्य सन्दर्भे ह्य पेरिस डाँडावर्तिनी दलस्य कार्यालये आयोजितं कार्यक्रमं सम्बोधयन् नेकपा माओवादी केन्द्रस्य अध्यक्ष प्रचण्ड सर्वकार सुशासनाय दृढतापूर्वकम् अग्रे वर्धमानोस्तीति सूचितवान्। उप प्रधान गृहमन्त्री नारायण काली श्रेष्ठ कृत्रिम भूटान देशीय शरणार्थी प्रकरणे प्रहरिणा निष्पक्षम् अनुसन्धानम् विधीयमानम् अस्तित्यतः निर्दोषान् जनान् आतंकिताः न भवितुम् अनुरुणद्धि। राष्ट्रिय सभाया राष्ट्रिय सम्बद्धता समन्वय समिते ह्यसिम्ह प्रासादे उपविष्टे उपवेशे उप प्रधानमन्त्री श्रेष्ठ कृत्रिम भूटान देशीय शरणार्थी प्रकरणे विदेहे परिदौ स्थित्वा नेपाल प्रहरिणा अनुसन्धानम् विधीयमानम् वर्तते इति अज्ञापयत। उप प्रधानमन्त्री श्रेष्ठ प्रकरणेऽस्मिन् दोषिणः कस्यामपि परिस्थितौ उन्मुक्ताः न भविष्यन्ति एतदर्थं सर्वकारः सफलश्च जायमानोऽस्तीति असूचयत। समितेः उपवेशेन अर्थमन्त्रिणा डा प्रकाश शरण महत इत्यनेन आगामिनः आर्थिक वर्षस्य आयव्ययके प्रस्तुतस्य जनपद निर्वाचन कार्यालयस्य निरसनेन सम्बद्धस्य प्रस्तावस्य पुनरवलोकनाय सर्वकारः निर्दिष्टो वर्तते। अत्रान्तरे कृत्रिम भूटान देशीय शरणार्थी प्रकरणे पूर्व गृहमन्त्रिणः पक्षत ह्य द्वितीय दिवसेऽपि विमर्शनं सततम् चलत। पूर्वमन्त्रिण खाण इत्यस्य पक्षत विमर्शकानां विधिव्यवसायिनां संख्याया आधिक्यात् दिनद्वयस्य समय व्यतीतोऽस्ति। काष्ठमण्डप जनपद न्यायालयस्य न्यायाधीशस्य प्रेम प्रसाद न्यौपाने विधस्य न्यायपीठे सर्वकारीय विधिव्यवसायिनां विमर्शन समाप्तेः पश्चात् प्रतिवादिनां पक्षत विधिव्यवसायिभिः निरन्तरं विमृश्यमानं वर्तते। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत सर्वेषु चिकित्सालयेषु प्रतिशतं दशानां विपन्नानां असहायानां च रुग्णानां निःशुल्कम् उपचारस्य सर्वकारस्य नीतिं प्रभावकारिरूपेण क्रियान्वेतुम् आत्मनः क्रियाशीलता स्थिति ज्ञापयति। प्रतिनिधि सभाया शिक्षा स्वास्थ्य सूचना प्रविधि समितेः सिंह प्रासादे ह्य उपविष्टे उपवेशे मन्त्री बस्नेत वीर चिकित्सालये ज्वलनोपचार कक्षस्य व्यवस्थायै आगामिनः आर्थिक वर्षस्य आयव्यय विवरणे वित्तं विनियुक्तं वर्तते इति सूचयन् वित्तस्य अभावस्य कारणेन उपचारस्य अभावात् अकाल मृत्युवरणस्य अवस्था समाप्यते इति अज्ञापयत् इति समाचाराः।